इदानीं श्रूयते वा? इदानीं श्रोतुं शक्नुवन्ति? अस्तु 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 आरम्भं कुर्मः. ओके, तत्र इस् अ क्वश्चन् फ्रम् कलाकृष्णन्जि. Can you please spend 5 minutes before you start your regular session on your trip to Canada and your impression? Aham ante vadami idam vishe paatham samapya ayah astham vishe samapyate tatra samapya vadye vada vishe. Gata paathe asmaasihi attadhyaya sambhi sutrani katham upanishtani iti अधीयमानमासीत्. अधिकार संहितायां अधिकारः अस्ति षष्ठे अध्याये प्रथमपादे. तस्मिन् अधिकारे आधिक्येन अक्षरसूत्राणि वर्तन्ते. इपो वदति एतोयवायावः वान्तोये प्रत्यये. एतानि सूत्राणि संहितायाम् अधिकारे सन्ति. ततः परं संहितायां अधिकारः वर्तते, तस्य अन्तः एव एकः पूर्वपरयोः इति अपरः अधिकारः अस्ति. तस्मिन् अधिकारे आद्गुणः वृद्धिरेति अतः सवर्णे दीर्घः एङः पदान्तादपि एतानि सूत्राणि वर्तन्ते. अत्रापि संहितायाम् इति अधिकारस्य अनुवृत्तिरस्ति. कृतप्रयुष्य अतिनित्यम् इत्यपि सूत्रमस्ति प्रकृतिभावसम्बद्धं, तत्रापि संहितायाम् इति अनुवर्तते. एवञ्च एतानि अच्छन्ति सूत्राणि यानि अस्माभिः तत्र ये सन्धया अस्माभिः पठिताः तत्सम्बद्धानि सूत्राणि अत्र सन्ति. वस्तुतः अष्टाध्याय्याम् इतोपि सूत्राणि अन्यानि अपि सूत्राणि वर्तन्ते. सर्वाणि अपि सूत्राणि अत्र न सन्ति. ततः परं मया अनुवृत्त्यादिकं योजयित्वा सूत्राणि कथं भवन्ति इति दर्शितम्. संहितायाम् इति अधिकारः, अतः संहितायाम् इति पदम् अनुवर्तते. अनुवृत्तौ कृतायां सूत्रं कथं भवति? इकः यण्टचि संहितायाम् एतः अयवायावः अचि इति पदम् इकः यण्टचि इत्यस्मात् अनुवृत्तम्. संहितायामिति अधिकारः, अतः एषः अयवायावः अचि संहितायाम् वान्तः इ प्रत्यये संहितायाम् एकः पूर्वपरयोः अधिकारः अस्ति. संहितायाम् अधिकारः अस्ति, अतः आत् गुणः अचि इति पदम् इकोवणचि इत्यतः अनुवृत्तम्. आत् गुणः अचि एकः पूर्वपरयोः संहितायाम्. आत् वृद्धिः एचि एकः पूर्वपरयोः संहितायाम्. अकस्थवर्णे दीर्घः अचि अनुवृत्तम् एकः पूर्वपरयोः संहितायाम्. एङः पदान्तादति पूर्वः पदम् अनुवृत्तम् एकः पूर्वप्रयोगति अधिकारः संहितायां कृते अधिकारः. कृतप्रयोष्यः अतिनित्यं प्रकृत्या इति अनुवृत्तं संहितायां अधिकारः. एवम् अनुवृत्तपदैः सूत्राणि एवं भवन्ति. ततः परं संहिता पदस्य अर्थः उक्तः. संहिताविषये कश्चन श्लोकः वर्तते. संहितैकपदे नित्या नित्या धातूपसर्गयोः नित्या समासे वाक्येषु सा विवक्षाम् अपेक्षते. अग्रे एकं निमेषम् अन्यत् इयर्फोन् स्वीकरोतु.
अस्तु इदानीं प्रत्येकं सूत्रस्य अर्थं जानीमः अष्टाध्यायीक्रमेण यानि सूत्राणि वर्तन्ते अस्तु इदानीं सम्यक् श्रूयते इति भाति अस्तु संहितायामिति अधिकारः तत्र प्रथमं सूत्रम् इकः यन् अति संहितायाम् अनुवृत्तसंहितायामिति अधिकारः वर्तते अतः तत्पदम् अनुवृत्तम् तत्र इकः इति षष्ठी यन् इति प्रथमा अति इति सप्तमी संहितायामिति अपि सप्तमी विभक्तिः किन्तु संहिता इति काचित् संज्ञा टेक्निकल् टर्म् तस्य विवरणं पूर्वम् उक्तं वर्णानाम् अत्यन्तं सामीप्यम् एव संहिता प्राक्सिमिटि आफ् लेटर्स् एव संहिता इति पदेन कथ्यते अतः अत्र संहितायाम् इत्यनेन संहिता यदा विवक्षिता संहिता यदा विवक्षिता वेन् संहिता इस् इण्टेण्डेड् संहिता यदा विवक्षिता तदा इकः इति षष्ठी अतः इकः स्थाने यन् भवति अति परे संहितायां विषये संहितायां विषये मीन्स् यदा संहिता विवक्षिता वेन् संहिता इस् इण्टेण्डेड् तदा इकः स्थाने यन् भवति अति परे कथम् अयमर्थः प्राप्तः अत्र विभक्तिमवलम्ब्य इकः इति षष्ठी विभक्तिरस्ति अतः इकः स्थाने यण् इति प्रथमा अतः यण् भवति अति इति सप्तमी अतः अति परे किन्तु संहितायां परे इति अर्थः वक्तुं न शक्यते यतः संहिता इत्यस्य संहिता परे भवितुं नार्हति संहितावर्णयोः मध्ये भवति अतः संहितायां विषये तत्र वस्तुतः सप्तमी द्विविधा अस्ति परे परसप्तमी अपि अस्ति विषयसप्तमी अपि वर्तते कदाचित् परसप्तमी आधिक्येन परसप्तमी स्वीक्रियते क्वचित् विषयसप्तमी स्वीक्रियते यत्र कश्चन वर्णः परे भवितुमर्हति इफ् इट् इस् पासिबल् तदा परसप्तमी अन्यथा विषयसप्तमी स्वीक्रियते अत्र संहितायामिति यद्यपि सप्तमी विभक्तिः तथापि विषयसप्तमी संहितायां विषये अत्र परसप्तमी अति परे अतः इकः स्थाने यन् भवति अति परे संहितायां विषये इति सम्पूर्णं सम्पूर्णसूत्रस्य अर्थः इयमेव वृत्तिः अत्र सिद्धान्तकौमुद्यामपि दृश्यते इफ् यु सी सिद्धान्तकौमुदी वृत्ति यु विल् फैण्ड् सेम् सेण्टेन्स् इकः स्थाने यन् भवति अति परे संहितायां विषये एवं तैः वृत्तिः लिखिता दिस् हौ दे रोट् वृत्ति डिपेण्डिङ्ग् आन् विभक्ति अण्ड् अनुवृत्ति अग्रिमं सूत्रम् एषः अयवायावः अति संहितायाम् अत्रापि एषः इति षष्ठी अयवायावः इति प्रथमा अति इति सप्तमी संहितायाम् इति सप्तमी किन्तु अत्र विषयसप्तमी अतः सूत्रस्य अर्थः एतः स्थाने अयवायावः भवति असि परे संहितायां विषये एतः अयवायावः असि संहितायाम् अत्र भवन्तः इदा द्रष्टुं शक्नुवन्ति इकः इ ऊरुलु अत्र वर्तते इकः स्थाने यण् भवति क्षम्यताम् इक् अत्र अस्ति इकः स्थाने इ ऊरु ल इकः स्थाने यण् भवति यण् य व र ल यण् वर्णाः भवन्ति अचि परे अ इ ऊरु ल इति सर्वेपि अच् वर्णाः अतः इकः स्थाने यण् भवति अचि परे संहितायां विषये एवम् एतः अयवायावः असि संहितायाम् एतः ए ओ ऐ ओ एतः स्थाने अयवायावः भवन्ति अचि परे संहितायां क्षये. एवं तत्र इदानीम् अन्वयं द्रष्टुं शक्नुवन्ति. यद् अस्माभिः अधीतं तत् एतेषु सूत्रेषु कथम् उपन्यस्तम् इति वयं ज्ञातुं शक्नुमः. इयं वृत्तिः एतः स्थाने अयवायावः ऐ अव् ऐ अव् अयवायावः भवन्ति अचिपरे संहितायां विषये. वान्तः यि प्रत्यये संहितायाम् इदमपि सूत्रम् एतस्य अर्थः उक्तः आसीत्. तत्र यकारादिप्रत्यये परे वान्तः आदेशः भवति इति उक्तम्. अस्मिन् चित्रे इदं नास्ति, किन्तु ततः परम् इदम् एतस्य उदाहरणम् उक्तं. तत्र गव्यं नाव्यम् इत्यादीनि उदाहरणानि पूर्वं दर्शितानि. तत्सम्बद्धं सूत्रम् इदं वर्तते, वान्तः यि प्रत्यये संहितायाम्. अत्र वान्तः इति प्रथमा, यि इति सप्तमी, प्रत्यये इत्यपि सप्तमी, संहितायाम् इत्यपि सप्तमी. किन्तु यि इत्यनेन वर्णः गृह्यते. य यि इत्यनेन यकारस्य सप्तमी भक्तिः यि इति, प्रत्यये इत्यपि सप्तमी भक्तिः. यि इति प्रत्यये इत्यस्य विशेषणं, प्रत्ययस्य विशेषणं. प्रत्यये इति सप्तम्यन्तं पदं, तस्य विशेषणम् इदम्, इस् अ विशेषण आफ् दिस् वर्ड् प्रत्यय. अतः मया पूर्वम् उक्तं, वेन् वी वर् स्टडिङ्ग् हौ टु अण्डर्स्टाण्ड् दीस् सूत्र, देन् ऐ मेन्शन् इति विशेषणं, वर्णबोधकं पदं विशेषणम्. इफ् वर्णबोधकपद इस् विशेषण, तदा तदादेः इत्यर्थः. सो बिगिनिङ्ग् वित् देट् लेटर्, सो वी हेव् टु टेक् द बिगिनिङ्ग् वित् देट् लेटर् इफ् वर्णबोधकपद इस् विशेषण. सो हियर् यि प्रत्यय इत्यस्य कः अर्थः? यकारादिप्रत्यये, प्रत्यय विच् बिगिन्स् वित् यकार, यकारादिप्रत्यये परे वान्तः आदेशः भवति संहितायां विषये. अतः सूत्रार्थः भवति वान्तः भवति, वान्तः आदेशः भवति यि प्रत्यये. द मीनिङ्ग् आफ् दीस् टु वर्ड्स् इस् यकारादिप्रत्यये. हौ ऐ गाट् दिस् मीनिङ्ग्? Because yi iti visheshanam is the adjective to pratyaya, and this is varnabodhaka pada. If varnabodhaka pada is visheshana, tada tadadehe iti arthah. Atah yakaradau yakaradau pratyaye iti arthah labhyate. Atah vantah adeshah bhavati yakaradau pratyaye pare samhitayam iti sutra arthah. तत्र क्वश्चन् इन् इकः अचि परे वेर् इस् द एक्सेप्शन् फार् सवर्णदीर्घसन्धि, तद्विषये अहं वदिष्यामि. अहम् अपवादविषये वदिष्यामि किञ्चित्. एतद् निरूपणं कृत्वा ततः परं तं विषयं निरूपयामि. तत्र पुनः प्रश्नः अस्ति, वान्तः इत्युक्ते, वान्तः नाम व् अन्त, अन्त एण्डिङ्ग्, एण्डिङ्ग् वित् वकार, इट् इस् वान्त, वान्तः आदेशः. सो द आदेश एण्ड्स् वित् वकार. इन् प्रीवियस् सन्धि देर् आर् टु आदेशास्, औ एण्ड् आव्, द एण्ड् वित् वकार, ऐ औ ऐ आव्. तत्र अव् पुनः आव् वकारान्तः अस्ति. एतौ द्वौ, अत्र वान्त इति पदेन एतौ द्वौ स्वीक्रियेते, अव् आव् अनयोः ग्रहणं. दीस् टु सब्स्टिट्यूशन्स् टु बि टेकन् बै द वर्ड् वान्त. एक्साम्पल्स् वि हाव् सीन् द एक्साम्पल्स् आफ् आफ् दिस् सूत्र, जस्ट् ऐम् एक्स्प्लेनिङ्ग् द सूत्र. ओके, example, we saw the example for Gavya, go plus ya. Just I will write here. Previously, we did this. Go plus ya. Yakara is a, here it's, this ya is a pratyaya. And it's beginning with you only. U plus a ya, so it begins with yakara. Yakara adi pratyaya pare. Here, yakara adi pratyaya pare asti. Ataha, vantaha adeshaha bhavati. Vantaha adesha means av and av. So, o will be replaced with av, and av will be replaced with av. Atra okara asti. अतः ओकारस्य स्थाने औ भवति चेत् गव एवं ओकारस्य स्थाने औ गकारः अवशिष्यते अतः गौ गौ प्लस् य गव्य गव्यं पञ्चगव्यम् इति शब्दं जानन्ति गव्य इति पदं सिद्ध्यति इदम् अस्य वान्तोयि प्रत्यये अस्य उदाहरणम् अस्तु अग्रे अन्यः अधिकारः अस्ति एकः पूर्वपरयोः संहितायाम् इत्यपि अधिकारः अस्ति तस्मिन्नेव अधिकारे अन्योपि अधिकारः वर्तते दट् इस् वन् मोर् अधिकार अण्डर् दिस् संहितायाम् अधिकार दट् इस् एकः पूर्वपरयोः एण्ड् अण्डर् दीस् टु अधिकारास् आद्गुणः इस् मेन्शन् देफोर् द्वयोः अपि अनुवृत्तिरस्ति आद्गुणः Achi, Achi is taken from Iko and Achi. Aat Gunaha Achi, Ekaha Puraparayoho, this is from this previous Adhikara, and Samhitayam is also from Adhikara. Aat Gunaha Achi, Ekaha Puraparayoho, Samhitayam, iti Sampurnam Sutra. Kaha Arthaha Asya? अत्र सो वर्णबोधकं भवति चेत् किं भवति सो इफ् वर्णबोधकपद इस् विशेषण देन् तदादेः इत्यर्थः अदर्वैस् तदन्तस्य ऐ मेन्शन्ड् अबौट् दिस् हौ टु अण्डर्स्टाण्ड् द विशेषण एण्ड् इफ् जनरलि विशेषण इफ् इफ् संथिङ्ग् इस् विशेषण देन् तदन्तस्य इत्यर्थः करणीयः एण्डिङ्ग् वित् देट् if that is varnabodhaka pada then beginning with that it was that meaning we have to take that we studied previously so you can refer the book also so that you will get some examples this okay atra at gunaha atra vibhaktim pashyamaha at iti panchami gunaha iti prathama achi iti saptami ekaha इति प्रथमा पूर्वपरयोः इति षष्ठी संहितायाम् इति सप्तमी आत् अचि आत् पञ्चमी अस्ति अतः आत् नाम अकारात् आत् इति पञ्चमी आफ् अ लैक् रामात् राम शब्दः रामात् इति पञ्चमी एवम् अ इति शब्दः आत् इति पञ्चमी अतः आत् इत्यस्य अकारात् इत्यर्थः एनि अकार सो ह्रस्व दीर्घ एनि सो आत् अकारात् अचि सप्तमी सो अकारात् अचि परे अकारात् अचि परे किं भवति देयर् आर् टु प्रथमान्त वर्ड्स् एकः एण्ड् गुणः एकः गुणः भवति अकारात् अचि परे एकः गुणः भवति कस्य स्थाने पूर्वपरयोः दिस् इस् द सिक्स्थ् केस् वर्ड् पूर्वपरयोः पूर्व पूर्व इस् अकार एण्ड् पर अच् पूर्वपरयोः पूर्वं किम् अस्ति अकारः अस्ति परः कः अच् पूर्वपरयोः स्थाने एकः गुणः भवति संहितायां विषये अतः सूत्रार्थः कः अवर्णात् ಅಚಿ ಪರೇ ಪೂರ್ವ ಪರಯೋಃ ಸ್ಥಾನೇ ಏಕಃ ಗುಣಃ ಭವತಿ ಸಂಹಿತಾಯಾಂ ವಿಷಯೇ ಇತಿ ಸಂಪೂರ್ಣ ಸೂತ್ರಸ್ಯ ಅರ್ಥ. ಅವರ್ಣಾತ್ ಅಚಿ ಪರೇ ಪೂರ್ವಪರಯೋಃ ಸ್ಥಾನೇ ಏಕಃ ಗುಣಃ ಭವತಿ ಸಂಹಿತಾಯಾಂ ವಿಷಯೇ. ಕುತ್ರ ಅಸ್ತಿ ಉದಾಹರಣಂ, ಅತ್ರ ಚಿತ್ರೆ ಆತ್, ಅತ್ರ ಅಕಾರಃ ವರ್ತತೆ ಆತ್. ಅಚಿ ಪರೇ ಅಚೇತನೇನ ಸರ್ವೇ ವರ್ಣಾ ಗೃಹ್ಯಂತೆ, ಕಿಂತು ಅತ್ರ ಸರ್ವತ್ರ ಗುಣಸಂಧಿ ನ ಭವತಿ, ಕಿಮರ್ಥಂ ನ ಭವತಿ ಇತಿ ಅಹಂ ವದಿಷ್ಯಾಮಿ. ಆತ್ ಅಚಿ ಪರೇ ಪೂರ್ವ ಪರಯೋಃ, ಅತಃ ದಿಸ್ ಇಸ್ ದ ಗುಣ ಎ ಓ ಅಂಡ್ ಅ ಇತೇ ಅತ್ರ ಗುಣವರ್ಣಾ ಸಂತಿ. ಪೂರ್ವ ಪರಯೋಃ ಇತಿ ಅಧಿಕಾರ, ಅತಃ ದೇರ್ಫೋರ್ ದಿಸ್ ಎ ರಿಪ್ಲೇಸಸ್ ಬೋತ್ ಪೂರ್ವ ಅಂಡ್ ಪರ. ಅಕಾರ ಪೂರ್ವ ವರ್ಣ ಭವತಿ, ಅಚ್ ಈ ಊರುಲು ಏತೇ ಪರವರ್ಣಾಃ ಭವಂತಿ. ಪೂರ್ವ ಪರಯೋಃ ಸ್ಥಾನೇ ಏಕಃ ಗುಣಃ, ಸೋ ಇಟ್ ರಿಪ್ಲೇಸಸ್ ಬೋತ್ ದ ಲೆಟರ್ಸ್. ಬಟ್ ಪ್ರೀವಿಯಸ್ಲಿ ಎನ್ ಎನ್ ಯೂಸ್ ಟು ರಿಪ್ಲೇಸ್ ಓನ್ಲಿ ಇಕಾರ, ಯಕಾರ ರಿಪ್ಲೇಸ್ ಓನ್ಲಿ ಇಕಾರ. ವಕಾರ ಕೇವಲ ಉಕಾರಸ್ಯ ಸ್ಥಾನೇ, ಋಕಾರ ಕೇವಲ ರೇಫ ಕೇವಲ ಋಕಾರಸ್ಯ ಸ್ಥಾನೇ, ಲುಕಾರ ಕೇವಲ ಲು ವರ್ಣಸ್ಯ ಸ್ಥಾನೇ. ಏಮೇವ ಐ ಔ ಐ ಔ ಏತೇಪಿ ಪೂರ್ವಸ್ಯ ಸ್ಥಾನೇ ಏವ. ಕಿಂತು ಎ ಓ ಅರ್ ಅಲ್ ಏತೇ ವರ್ಣಾಃ ಪೂರ್ವ ಪರಯೋಃ ಸ್ಥಾನೇ ಭವಂತಿ. ಕಿಮರ್ಥಂ ಪೂರ್ವ ಪರಯೋಃ ಸ್ಥಾನೇ ಏಕಃ ಪೂರ್ವ ಪರಯೋಃ ಇತಿ ಅಧಿಕಾರಃ ವರ್ತತೆ. ಅಸ್ಮಿನ್ ಅಧಿಕಾರೇ ಏತಾನಿ ಸೂತ್ರಾಣಿ ವರ್ತಂತೆ. ಅತಃ ಗುಣಸಂಧಿಃ ವೃತ್ತಿಸಂಧಿಃ ಪುನಃ ಸವರ್ಣ ದೀರ್ಘಸಂಧಿಃ, ಅತ್ರ ಪೂರ್ವ ಪರಯೋಃ ಸ್ಥಾನೇ ಆದೇಶಃ ನತು ಪೂರ್ವಸ್ಯ ಸ್ಥಾನೇ ಆದೇಶಃ. ಅತಃ ಯತ್ರ ಪೂರ್ವ ಪರಯೋಃ ಸ್ಥಾನೇ ಆದೇಶಃ ಭವತಿ ತಾದೃಶ ಸಂಧಯಃ ಅಸ್ಮಿನ್ ಅಧಿಕಾರೇ ಉಕ್ತಃ. ವೇರ್ ದ ಬೋತ್ ದ ಲೆಟರ್ಸ್ ಆರ್ ರಿಪ್ಲೇಸ್ ಸಚ್ ಸಂಧೀಸ್ ಆರ್ ಮೆನ್ಷನ್ ಅಂಡರ್ ದಿಸ್ ಅಧಿಕಾರ ಏಕಃ ಪೂರ್ವಪರಯೋಃ ಇತಿ ಅಧಿಕಾರೇ ತಾದೃಶ ಸಂಧಯಃ ಪಠಿತಃ. ಅತಃ ಗುಣಸಂಧಿಃ ಅಪಿ ಅಸ್ಮಿನ್ನೇವ ಅಧಿಕಾರೇ ವರ್ತತೆ, ಯತಃ ಪೂರ್ವ ಪರಯೋಃ ಸ್ಥಾನೇ ಅತ್ರ ಆದೇಶಃ ಭವತಿ. ತಸ್ಪರಂ ವೃದ್ಧಿಸಂಧಿಃ, ಆತ್ ವೃದ್ಧಿಃ ಏಚಿ. ಆತ್ ಇತಿ ಪದಂ ಆತ್ ಗುಣಃ ಇತ್ಯಸ್ಮಾತ್ ಸೂತ್ರಾತ್ ಸ್ವೀಕೃತಂ. ಅತಃ ಆತ್ ವೃದ್ಧಿಃ ಏಚಿ, ವೃದ್ಧಿರೇಚಿ ಇತಿ ಸೂತ್ರಂ. ಆತ್ ಇತಿ ಆದ್ ಗುಣಃ ಇತಿ ಪದ ಸೂತ್ರಾತ್ ಸ್ವೀಕೃತಂ. ಏಕಃ ಪೂರ್ವಪರಯೋಃ ಇತ್ಯಧಿಕಾರಃ ಸಂಹಿತಾಯಾಂ ಇತ್ಯಪಿ ಅಧಿಕಾರಃ. ಅತಃ ಆತ್ ವೃದ್ಧಿಃ ಏಚಿ ಏಕಃ ಪೂರ್ವಪರಯೋಃ ಸಂಹಿತಾಯಾಂ ಇತಿ ಪದಾನಿ ಭವಂತಿ. ಅತ್ರ ವಿಭಕ್ತಿಃ ಆತ್ ಇತಿ ಪಂಚಮಿ, ವೃದ್ಧಿಃ ಇತಿ ಪ್ರಥಮ, ಏಚಿ ಇತಿ ಸಪ್ತಮಿ, ಏಕಃ ಇತಿ ಪ್ರಥಮ, ಪೂರ್ವಪರಯೋಃ ಇತಿ ಷಷ್ಠಿ, ಸಂಹಿತಾಯಾಂ ಇತಿ ಸಪ್ತಮಿ. ಸೂತ್ರಾರ್ಥಃ ಕಃ? ಆತ್ ಅವರ್ಣಾತ್, ಏಚಿ ಏಚಿ ಪರೇ, ಏಕಃ ವೃದ್ಧಿಃ ಭವತಿ, ಏಕಾತಿ ಅತ್ರ ಅಧಿಕಾರಃ ಏಕಃ ಇತಿ ಅಸ್ತಿ, ಏಕಾ ವೃದ್ಧಿಃ ಭವತಿ. ಪೂರ್ವ ಪರಯೋಃ, ಪೂರ್ವ ಪರಯೋಃ ಸ್ಥಾನೇ, ಪೂರ್ವ ಕಃ ಭವತಿ ಅಕಾರಃ, ಪರಃ ಕಃ ಭವತಿ ಏಚ್ ವರ್ಣಃ. ಪೂರ್ವ ಪರಯೋಃ ಸ್ಥಾನೇ ವೃದ್ಧಿಃ ಭವತಿ ಸಂಹಿತಾಯಾಂ ವಿಷಯೇ. ಅವರ್ಣಾತ್ ಏಚಿ ಪರೇ ಪೂರ್ವ ಪರಯೋಃ ಸ್ಥಾನೇ ಏಕಃ ವೃದ್ಧಿಃ ಭವತಿ ಸಂಹಿತಾಯಾಂ ವಿಷಯೇ ಇತಿ ಸೂತ್ರಸ್ಯ ಅರ್ಥ. ಚಿತ್ರೇ ದ್ರಷ್ಟುಂ ಶಕ್ನುವಂತಿ, ಆತ್ ಅವರ್ಣಾತ್ ಏಚಿ ಪರೇ, ಏ ಚಿತ್ರೇನ ಎ ಓ ಐ ಔ ಏತೆ ವರ್ಣಾ ಗೃಹ್ಯಂತೆ. ಅವರ್ಣಾತ್ ಏಚಿ ಪರೇ ಪೂರ್ವ ಪರಯೋಃ ಸ್ಥಾನೆ, ಪೂರ್ವ ಅಕಾರಃ, ಪರಃ ಏಕಾರಃ, ಓಕಾರಃ, ಐಕಾರಃ ಅಥವಾ ಔಕಾರಃ, ಏತೇಷು ಅನ್ಯತಮಃ ವರ್ಣಃ, ಎನಿ ಒನ್ ಲೆಟರ್ ಅಮಂಗ್ ದೀಸ್. ಪರಃ ಪೂರ್ವ ಪರಯೋ ಸ್ಥಾನ ಇನ್ ದ ಪ್ಲೇಸ್ ಆಫ್ ಪೂರ್ವ ಪರ ಏಕ ವೃದ್ಧಿ ವೃದ್ಧಿಪದೇನ ಏತೆ ವರ್ಣ ಅದರ ಐ ಪುನಃ ಔ ಅನೇಹ ಗ್ರಹಣ ಅತ ಐ ಅಂಡ್ ಔ ರಿಪ್ಲೇಸಸ್ ಬೋಧ ದ ಲೆಟರ್ಸ್ ಪ್ರೀವಿಯಸ್ ಅಂಡ್ ಲೇಟರ್ ಒನ್ ಅಕಾರಸ್ಯ ಸ್ಥಾನೆ ಪುನಃ ಏತೇಷಾಂ ಸ್ಥಾನೆ ಏಕ ವೃದ್ಧಿ ಭವತಿ ಅತಃ ಐ ರಿಪ್ಲೇಸಸ್ ಬೋತ್ ಅಕಾರ ಅಂಡ್ ಏಕಾರ ಔ ರಿಪ್ಲೇಸಸ್ ಬೋತ್ ಅ ಅಂಡ್ ಓ ಸೇಮ್ ಐ ರಿಪ್ಲೇಸಸ್ ಅಗೇನ್ ಅಕಾರ ಅಂಡ್ ಐಕಾರ ಸೊ ಪೂರ್ವಪರಯೋ ಸ್ಥಾನೆ ಏಕ ಆದೇಶ ಅಸ್ತು ತತ್ಪರಂ ಗುಣಸಂಧಿ ಅಕಃ ಸವರ್ಣೇ ದೀರ್ಘ ಅಚಿ ಅಕಸ್ಸವರ್ಣೇ ದೀರ್ಘ ಇತಿ ಸೂತ್ರಂ ಅಂಡ್ ಅಚಿ ಇತಿ ಪದಂ ಅನುವೃತ್ತಂ ಏಕಃ ಪೂರ್ವಪರಯೋಃ ಅಧಿಕಾರಃ ಸಂಹಿತಾಯಾಂ ಇತ್ಯಪಿ ಅಧಿಕಾರಃ ಅತಃ ಸೂತ್ರಾರ್ಥಃ ಕಃ ಭವತಿ ಅಕಃ ಸವರ್ಣೇ ದೀರ್ಘ ಅಚಿ ಏಕಃ ಪೂರ್ವಪರಯೋಃ ಸಂಹಿತಾಯಾಂ ಏವಂಚ ಅಕಃ ಪಂಚಮೀ ಅತಃ ಅಕಃ ಪರಂ ಅಕ್ಕಿತ್ತನೇನ ಅಯುನ್ ರುಲುಕ್ ಸೊ ಅ ಇ ಉ ರುಲು ಏತೇ ವರ್ಣಾಃ ಅಕ್ ಇತಿ ಪದೇನ ಗೃಹ್ಯಂತೆ ಅ ಇ ಉ ರುಲು ಅಕಃ ಸಪ್ತಮಿ ಅತ್ರಾಪಿ ಅಸ್ತಿ ಸವರ್ಣೆ ಇತ್ಯತ್ರಾಪಿ ಸಪ್ತಮಿ ವರ್ತತೆ ಅಚಿ ಇತ್ಯಪಿ ಸಪ್ತಮ್ಯಂತಂ ಪದಂ ಸವರ್ಣೇ ಅಚಿ ಸವರ್ಣ ಸವರ್ಣ ಇತ್ಯನೇನ ಸಮಾನ ವರ್ಣ ಭವೇತ್ ಸಮಾನ ಸವರ್ಣ ಇತ್ಯಾಕ್ಚುಲಿ ವಸ್ತುತಃ ಸಂಜ್ಞಾ ಇಸ್ ಅ ಸಂಜ್ಞಾ ಸವರ್ಣ ಇನ್ ಸಂಸ್ಕೃತ ಗ್ರಾಮರ್ ಬಟ್ ಐ ಡಿಡ್ನ್ಟ್ ಎಕ್ಸ್ಪ್ಲೈನ್ ದಟ್ ಪ್ರೀವಿಯಸ್ಲಿ ಸೊ ಅತಃ ಸವರ್ಣ ಇತ್ಯನೇನ ಅತ್ರ ಅತ್ರ ಸಮಾನ ಉಚ್ಚಾರಣ ಭವೇತ್ ಅ ಇತ್ಯಸ್ಯ ಅ ಅಕಾರ ಇವ ಸವರ್ಣ ಇಕಾರಸ್ಯ ಇಕಾರ ಸವರ್ಣ ಉಕಾರಸ್ಯ ಉಕಾರ ಸವರ್ಣ ಅಕಾರಸ್ಯ ಇಕಾರ ಅಸವರ್ಣ ಸೊ ಟು ಅಕಾರ ಅಕಾರ ಇಟ್ಸೆಲ್ಫ್ ಇಸ್ ಸವರ್ಣ ಟು ಇಕಾರ ಇಕಾರ ಇಟ್ಸೆಲ್ಫ್ ಇಸ್ ಸವರ್ಣ ವರ್ಣ ಯಸ್ಯ ಸಮಾನ ಉಚ್ಚಾರಣಂ ಅಸ್ತಿ ತತ್ ಸವರ್ಣ ಇತಿ ಪದೇನ ಗೃಹ್ಯತೆ ಅತಃ ಸವರ್ಣೇ ಅಚಿ means akara should be followed by akara or ikara should be followed by ikara ukara should be followed by ukara ikara should be followed by ikara ikara should be followed by ikara then it is savarna ach akaha savarne achi kim bhavati purva parayoh sthane purva havarna ak bhavati para havarna savarna ach bhavati purva parayoh sthane ekaha dirghaha dirghavarnaha ಆದೇಶಃ ಭವತಿ ಸಂಹಿತಾಯಾಂ ವಿಷಯೇ ಯಥಾ ಅತ್ರ ಉದಾಹರಣಾನಿ ಸಂತಿ ಅಕಾರಾತ್ ಅಕಾರೇ ಪರೇ ಸೊ ಅಕಾರೇ ಸವರ್ಣ ವರ್ಣ ಸೊ ವೆನ್ ಅ ಇಸ್ ಫಾಲೋಡ್ ಬೈ ಸವರ್ಣ ಅಕಾರ ತದಾ ಕಿಂ ಭವತಿ ದೀರ್ಘಃ ಏಕಃ ದೀರ್ಘಃ ಭವತಿ ಸೊ ಇನ್ ದ ಪ್ಲೇಸ್ ಆಫ್ ಬೋತ್ ಅಕಾರ ದೀರ್ಘ ಲೆಟರ್ ರಿಪ್ಲೇಸಸ್ ಬೋತ್ ಅಕಾರಸ್ ಏಕಃ ದೀರ್ಘಃ ಭವತಿ ಏವಂ ಇಕಾರಾತ್ ಸವರ್ಣೇ ಇಕಾರೇ ಪರೇ ಈಕಾರಃ ಏಕಃ ದೀರ್ಘಃ ಆದೇಶಃ ಭವತಿ ಪೂರ್ವ ಪರಯೋಃ ಸ್ಥಾನೆ ಉಕಾರಾತ್ ಉಕಾರೇ ಪರೇ ಊಕಾರಃ ಋಕಾರಾತ್ ಋಕಾರೇ ಪರೇ ಋಕಾರಃ ಇತ್ಯೇವ is or should be in astu ekah iti kimartham uktam ekah eva adeshah tatra sthani dvayam there are two letters so dvayoh sthane ekah adeshah is adesha replacing both the letters atah ekah adeshah atah ayam ಪೂರ್ವಪರಯೋ ಸ್ಥಾನೆ ಏಕಃ ಪೂರ್ವ ಪರಃ ದ್ವಯೋ ಸ್ಥಾನೆ ಏಕಃ ಏವ ಆದೇಶಃ ಅತಃ ಏಕಃ ಇತಿ ಅಧಿಕಾರಃ ಅತಃ ಅಕ್ವರ್ಣಾತ್ ಸವರ್ಣೇ ಅಚಿ ಪರೇ ಪೂರ್ವಪರಯೋ ಸ್ಥಾನೆ ಇನ್ ದ ಪ್ಲೇಸ್ ಆಫ್ ಪೂರ್ವ ಅಂಡ್ ಪರ ಏಕಃ ದೀರ್ಘಃ ekaha eva varnaha dvayoh sthane bhavati. One single letter replaces both the previous and later one. Atah ekaha dirghaha bhavati samhitayam vishaye. Yes, there is Venkateswaran Mahodaya, prashna asti va?
Yeah, when akara is followed by akara, then also it is avarna
ditta. Satyam, satyam. Satyam. Oh, ityanena sarvesham grahanam. Hraswa and dirgha. Okay. Yeah, satyam. తరం ఏంగ పదాంతాత్ అతి ఏక పూర్వపరయో సంహితాయ ఏంగ్ ఏంగ్ ఇత్యనేన ఏ ఓ ఐ ఔ అస్య ఉదాహరణం అస్మిన్ చిత్రే నాస్తి ఇట్స్ నాట్ ఇన్ దిస్ పిక్చర్ ఏంగ పదాంతాత్ ఏంగ పంచమీ భక్తి పదాంతాత్ ఇది పంచమీ అతి ఇది సప్తమీ భక్తి ఏకః అధికారః ఏకః పూర్వపరయోః ఇతి అధికారః సంహితాయం ఇతి అధికారః పదాంతాత్ ఏంగః పదాంతాది ఇతి పంచమీ ఏంగః ఇతి పంచమీ పదాంతాది ఇతి ఏతస్య విశేషణం పదాంతాత్ ఏంగః సో ఏంగ్ షుడ్ బి అట్ ఎండ్ ఆఫ్ పద పద అంత పదాంత పదస్య అంతే భవేత్ కః ఏంగ్ వర్ణః అతః ద పద షుడ్ ఎండ్ విత్ ఏంగ్ లెటర్స్ పదాంతాత్ ఏంగః అతి అత్ర అతి ఇత్యుక్తం మయా పూర్వం ఉక్తమాసీత్ యది తకారేణ సహ నిర్దేశః క్రియతే పాణినినా ఇఫ్ పాణిని మెన్షన్స్ ఎనీ లెటర్ విత్ తకార తదా తస్య ఏవ వర్ణస్య గ్రహణం తస్య ఏవ ఇత్యనేన యది హ్రస్వేణ సహ తకారః వర్తతే తర్హి హ్రస్వస్య అకారస్యేవ గ్రహణం అత్ర అతి తకారేణ సహ హ్రస్వ అకారః నిర్దిష్టః హ్రస్వ అకార ఇస్ మెన్షన్ విత్ తకార అతః హ్రస్వ అకారస్యేవ గ్రహణం ఇఫ్ దేర్ ఇస్ నో తకార దెన్ యు కెన్ టేక్ ఎనీ లెటర్ ఫర్ ఎగ్జాంపుల్ వి డిడ్ ఆత్ ఇస్ పంచమీ భక్తి ఆఫ్ అకార ఇఫ్ దెన్ వి కెన్ టేక్ హ్రస్వ ఆర్ దీర్ఘ But here, Panini mentions it's Ati. Takarena saha akarasya nirdesha kritaha. Ataha, Ati ityanena kasya grahanam hraswasya akarasya eva grahanam. Ataha, padantad engaha ati pare. It means, hraswa akare pare purva parayoho sthane in the place of eng. Padanta eng and at hraswa akara. Purva parayoho sthane. ఏకః ఏకః పూర్వః ఇస్ వన్ మోర్ వర్డ్ ఇస్ దేర్ ఐ థింక్ ఇస్ ఐ లెఫ్ట్ దట్ వర్డ్ దట్ ఇస్ పూర్వః పూర్వ రూపం ఆదేశా భవతి ద ప్రీవియస్ ఫామ్ రిప్లేసెస్ బోత్ పదాంతాత్ ఏంగః అతి పరే ఏకః పూర్వః సో దట్ వర్డ్ ఇస్ మిస్సింగ్ పూర్వః ఏకః పూర్వః పూర్వ ఇస్ ప్రీవియస్ ఫామ్ పూర్వ రూపం ఏకః ఏకం పూర్వ రూపం ద్వయోః స్థానే ఆదిష్టం భవతి పూర్వపరయోః స్థానే ఏకః పూర్వః పూర్వ రూపం భవతి సంహితాయాం విషయే ఇది సూత్రస్య అర్థః ఏతస్య ఉదాహరణం పూర్వం దర్శితమాసీత్ ఇట్ ఇస్ నాట్ ఇన్ దిస్ పిక్చర్ బట్ ద ఎగ్జాంపుల్స్ వర్ గివన్ ప్రీవియస్లీ ఆర్ వి గోయింగ్ టు సీ ఎగ్జాంపుల్స్ ఆఫ్ దిస్ యాక్చువల్లీ వి స్టడీడ్ ద ఎగ్జాంపుల్స్ సో ఓన్లీ ఐఎమ్ షోయింగ్ హౌ ఇట్ ఈస్ ఎక్స్ప్లెయిన్డ్ ఇన్ అష్టాధ్యాయి సో ప్రీవియస్లీ వి డిడ్ ఐ ఎక్స్ప్లెయిన్ దీస్ రూల్స్ మీన్స్ ఐ డిడ్ మెన్షన్ దీస్ సూత్రాస్ బట్ ఐ ఎక్స్ప్లెయిన్డ్ the meaning of these sutras and I showed the examples. And now I am showing how it is explained in Ashtadhyayi. So all these were explained and we have seen examples. So if anybody was not there in the class, then you can refer to the previous classes or you can refer to the book where you will find examples. Mm-hmm. Because now we are concluding this Achandhi. इदानीं तत्र पूर्वं प्रश्नः आसीत् सवर्णदीर्घविषये अपवाद इति अपवादविषये प्रश्नः आसीत् ऐ एम गोइंग टू एक्सप्लेन व्हाट इज उत्सर्ग एंड व्हाट इज अपवाद आद् गुणः असि एकः पुरपरयोः संहितायां दिस रूल वी स्टडीड सो अवर्णात् असि परे गुणः भवति इत्युक्तम् किन्तु सी इफ यू सी दिस पिक्चर अवर्णात् अचिपरे गुणः इति सूत्रस्य अर्थः अवर्णात् अचिपरे गुणः किन्तु ओन्ली वेन् ई ऊ ऋ ल फालोस् अकार देन् ओन्ली वी अप्लैड् दिस् गुणसन्धि सूत्रे अस्ति अवर्णात् अचिपरे किन्तु अस्माभिः एतेषु ई ऊ ऋ ल एतेषु परेषु एव गुणसन्धेः अन्वयः कृतः किमर्थमेवम् पाणिनेन अचिपरे इत्युच्यते किन्तु अस्माभिः अचिपरे न क्रियते केवलम् एतेषु चतुर्षु वर्णेषु परेषु एव गुणः क्रियते किमर्थमेवम् इति चेत् तत्र कारणमस्ति तत् अहं वक्तुमिच्छामि आत् गुणः अचि एकः पूर्वपरयोः संहितायाम् आत् अचिपरे गुणः इति वस्तुतः सूत्रस्य अर्थः ततः परम् अन्यत् सूत्रमासीत् आत् एचिपरे वृद्धिः अस्मिन् सूत्रे आत् अचिपरे गुणः इत्युक्तम् बट् इन् दिस् सूत्र आत् एचिपरे वृद्धिः द डिफ्रेन्स् इस् हियर् इट् इस् अचि एण्ड् हियर् इट् इस् एचि एचिपरे वृद्धिः अचिपरे गुणः एवञ्च इदानीम् अत्र पश्यन्ति चेत् अकारः वर्तते सूत्रद्वये अपि अकारात् इत्येव उक्तम् आत् गुणः इत्यत्रापि आत् इति पदमस्ति वृद्धिरेचि आत् वृद्धिः एचि इत्येव अत्रापि उक्तम् अतः द प्रीवियस् लेटर् फस्ट् लेटर् डि अकार सूत्रद्वगुणसन्धौ वृद्धिसन्धौ च गुणसन्धौ किमुच्यते असि परे सो वेन् अकार इस् फालोड् बै अच् लेटर्स् दट् इस् अ इ उ ऋ ल ए ओ ऐ औ एतेषु परेषु गुणः इति प्रथमेन सूत्रेण उक्तम् किन्तु द्वितीयेन सूत्रेण किमुच्यते आत् एचि परे सो वेन् अकार इस् फालोड् बै एच् लेटर्स् ए ऐ ओ औ एचि परे वृद्धिः इति उच्यते आत् एचि परे वृद्धिः इति द्वितीयेन सूत्रेण उच्यते यदि सर्वत्र गुणसन्धिः एव क्रियते इफ् यु अप्लै गुण रूल् एव्रिवेर् देन् वृद्धिसन्धेः अवकाशः नास्ति यदि सर्वत्र गुणसन्धेः एव अन्वयः क्रियते तर्हि वृद्धेः वृद्धिसन्धेः अवकाशः एव नास्ति इट् मीन्स् दिस् रूल् बिकम्स् यूस्लेस् इफ् यु अप्लै एव्रिवेर् इफ् यु अप्लै ओन्लि गुण रूल् गुणसन्धि रूल् देन् दिस् वृद्धिसन्धि रूल् बिकम्स् यूस्लेस् यु काण्ट् अप्लै वृद्धिसन्धि रूल् एनिवेर् अतः किं भवति वृद्धि सूत्रस्य वृद्धिसूत्रं गुणसूत्रं बाधते वृद्धिसूत्रं सो दिस् इस् एक्सेप्शन् आत् वृद्धिरेचि इस् एक्सेप्शन् अण्ड् आत् गुणः अचि इस् अ जनरल् रूल् सो द एक्सेप्शन् ओवर् रूल्स् जनरल् रूल् इफ् देर् इस् एक्सेप्शन् देन् वि काण्ट् अप्लै जनरल् रूल् अतः आत् वृद्धिरेचि इति सूत्रेण आत् गुणः इति सूत्रस्य बाधः भवति त तस्मात् यदा एच वर्णाः परे भवन्ति तदा गुणसन्धेः अन्वयः न भवति. यद्यपि सूत्रे आत् गुणः अचि इत्युक्तं, तथापि सर्वेषु अचुवर्णेषु परेषु गुणसन्धिः न भवति. किमर्थं न भवति? वृद्धिरेचि इत्यनेन अस्य बाधः भवति. वृद्धिरेचि इति विशेषनियमः, आत् गुणः अचि इति सामान्यनियमः. विशेषनियमेन सामान्यनियमस्य बाधः भवति, अतः एचि परे गुणसन्धिः न भवति. Yes, could we say the later rule overrides the formal? Yeah, we can say the special rule overrides the general rule. Special rule overrides the general rule. Yeah. Anyata, see, even in Savarna Dirgha, Akaha Savarne Achipare Savarna Dirgha, when Akara Ak I U rule, when Ak is followed by Savarna letter, then Savarna Dirgha Sandhi is applicable. Therefore, here also, when Akara is followed by Akara, then Savarna Dirgha Sandhi is applicable. Again, this is a special rule. So, this overrides this Guna Sandhi. Therefore, we can't apply Guna rule here. Means when A is followed by Akara, then also we can't apply Guna Sandhi rule. And when A is followed by etc., then also we can't apply Vritti rule. Because these two rules, they override Guna rule. Ataha, eteshu akarat akare pareyati guna santhir na bhavati, akarat esi pareyati guna santhihi na bhavati. Kimartham, tatra visheshaniyamaha vartante. Visheshaniyamena samananiyamasya badhaha bhavati. Ataha, atra vyakarana shastre padadvayam prayujyate, samananiyamaha utsargaha iti padena kathyate, visheshaniyamaha अपवादः इति पदेन कथ्यते. आद्गुणः अचि एकः पूर्वपरयोः संहितायामिति उत्सर्गः सामान्यनियमः. उत्सर्गः आत् वृद्धिरेचि एकः पूर्वपरयोः संहितायामिति अपवादः विशेषनियमः. अपवादेन उत्सर्गस्य बाधः भवति. अस्तु, अतः अयम् अपवादः वृद्धिरेचि इति अपवादः, आद्गुणः इति उत्सर्गः. अपवादेन उत्सर्गस्य बाधः भवति. अतः अपवादस्थाने उत्सर्गसूत्रस्य प्रवृत्तिः नास्ति. यद्यपि सूत्रे अचि इति पदं वर्तते, तथापि सर्वेषु अचुवर्णेषु परेषु गुणसन्धेः प्रवृत्तिः नास्ति. किमर्थं नास्ति? अपवादसूत्राणि वर्तन्ते, अपवादेन उत्सर्गस्य बाधः भवति. इट् इस् नाट् नियम, इट्स् काल्ड् अपवाद. ओके, अमङ्ग् दोस् सिक्स् टैप्स् यु आर् आस्किङ्ग् इति नियम, यु काण्ट् से इस् नियमसूत्र, इट्स् विधि ओन्लि, बट् इट्स् अपवाद. ओके, तङ्को किं दि सेट् नियम. देन् प्रकृतिभाव, वन् मोर् रूल्, ಪ್ರಕೃತಿಯ ಅಚಿನಿತ್ಯ ಅಂಡ್ ದಿಸ್ ಪ್ರಕೃತ್ಯ ಪ್ರಕೃತ್ಯ ಇತಿ ಪದಂ ಅನುವೃತ್ತಮಸ್ತಿ. ಅತ್ರ ಓಕೆ, ಭವದ್ಭಿಃ ಅತೋಗುಣೇ ವಿಷಯೇ ಅಪಿ ಕಥ್ಯತೇವ ಅಸ್ಮಿನ್ ಸೂತ್ರೇ. ಅತೋಗುಣ ವಿಷಯೇ ನ ಉಚ್ಯತೆ ಮಯಾ, ಕೇವಲಂ ಆದ್ಗುಣಃ ಇತಿ ವಿಷಯೇವ. तत्सूतं न पाठितम् अतः तद्विषये अत्र चर्चा न कृता.
One more question is there. Also, he has mentioned ekaha gunaha bhavati, but hasn't mentioned exactly which letter replaces.
Okay, the answer, actually Panini mentioned the answer to this question. He says the antaratama, he uses the word antaratama. Antaratama means the closest letter. Means, if you take A and E, then the akarasya sthanam kantha, ikarasya sthana talu, and the sthana of ekara is kantha talu. Therefore, A replaces A and E. Because you have to see the sthana samya. A, akara kantha, ikara talu, and ekara kantha talu. Therefore, A replaces A and E. This is called antaratama. The antaratama letter replaces the sthani. This is a Panini sutra, sthane antaratamaha. Iti sutra masti Paninihe. So the antaratama letter replaces. Therefore, so there is no ambiguity. So which letter to letter replaces which one? So actually there is no ambiguity. So antaratama one. Replaces the sthani. What is antara? Antaratama is sadrisha. Sadrisha. Antara is equal to sadrisha. Sadrishaha varanaha saha adishtha bhavati. Similar. You can say similar. Having same sthana. That replaces the sthani. Then there is one more rule. Pruta pragrasya achi nityam. Prakritya and samhitayam. Prakritya iti anuvrittam asti. Samhitayam is achikara. And we saw example of this for this sutra. Pruta, we know, is yatra trimatra kalasya uccharanam bhavati saha pruta iti kathyate. Pragrishya is again a technical term. I showed example of pragrishya also. For example, divachana. Ikaranta divachana. Hari. Harihi hari haraya. It's ikaranta divachana. Guruhu guru guravaha. Ukaranta divachana. Guru. These are called pragrishyas. Ikaranta divachana. Ukaranta divachana. It is a pragrishya samnyas. There are many rules regarding pragrishya samnya. Pruta pragrishyaha. Prathama Shakti, Prata Prashyaha, Achipare, when they are followed by earth, Achipare, Nityam Prakritya, Prakritya Bhavanti Samhitayam, Prakritya Nama, Swabhavena, Swaswarupena, they won't change. Prakriti means Swabhava, Swaswarupa. So, when Prata and Prashyas are followed by earth, Sandhi rules are not applicable. Nityam prakritya bhavanti. They remain as they are. So these rules are not applicable. Ataha, nityam prakritya bhavanti samhitayam vishaye. Atra prashna asti. Okay. Paninihi apavada sutraha iti sutreshu nirdishtam va. Apavada iti padam Paninina na prayuktam. Apavada iti utsarga iti padam api Paninina na prayuktam. Apavada iti padam api na prayuktam. Tehi katham etani padani asmabhi prayujyante iti chet. Mahabhashyakarena Patanjalina etani padani mahabhashya prayuktani. Utsargaha apavadaha iti padani bhashyakarena prayuktani. Ataha sampratī vyākaraṇa śāstre etāni padāni prayujyante kintu pāṇinehe sūtre utsargaha apavādaha iti padāni na santi.
तत्र अन्यः प्रश्नः अस्ति, उच्चारणस्थानं समानम् इति वक्तुं शक्नुमः वा? उच्चारणस्थानं समानम् इति वक्तुं शक्यते. वस्तुतः इतोपि अत्र केचन अंशाः सन्ति, तत्र आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः इति अस्ति. तत् उच्चारणविषये एव स्थानं पुनः प्रयत्नः इति अंशद्वयमस्ति उच्चारणविषये. स्थानविषये मया पूर्वम् उक्तं, तद्विहाय प्रयत्नाः अपि सन्ति, कदाचित् प्रयत्नाः अपि द्रष्टव्याः भवन्ति. तद्विषये मया पूर्वं न उक्तं, यदि अग्रे तस्य अपेक्षा भवति अहं वदिष्यामि प्रयत्नानां विषये. तदपि उच्चारणसम्बद्धमेव, स्थानानि सन्ति, उच्चारणस्थानानि सन्ति, पुनः प्रयत्नाः सन्ति. प्रयत्नाः अपि बाह्यप्रयत्नः अभ्यन्तरप्रयत्नः इति द्विधा अस्ति. भवतां यदि तद्विषये ज्ञातुम् इच्छा अस्ति, सिद्धान्तकौमुद्याम् अथवा लघुसिद्धान्तकौमुद्यां द्रष्टुं शक्नुवन्ति. इन् सिद्धान्तकौमुद्या लघुसिद्धान्तकौमुदी इन् द फस्ट् संज्ञाप्रकरणम् उन्दि दे हाव् मेन्शन् द स्थान अण्ड् प्रयत्नास्. मया अत्र न उक्तं, केवलं स्थानविषये एव उक्तम् अस्तु. अतः कृतप्रवेश्याः अचिपरे नित्यं प्रकृत्या भवन्ति संहितायाम्. अस्य सन्धिः प्रकृत्या न स्वभावेन, सन्धेः अन्वयः न भवति इत्यर्थः अस्तु. एवञ्च एतावत्पर्यन्तं मया अच्छन्धीनां विषये उक्तम्. अत्र आरम्भे सन्धेः अवगमनं कथम् इति दर्शितम्, उदाहरणानि दृष्टानि. ततः परं तत्सम्बद्धानि अष्टाध्यायीसूत्राणि यानि वर्तन्ते तानि दृष्टानि, तेषाम् अर्थः कथम् अवगन्तव्यः, विभक्तिम् अनुवृत्तिञ्च अवलम्ब्य सूत्राणामर्थः कथं ज्ञातव्यः इत्यपि दर्शितम्. वस्तुतः सर्वाणि सन्धिसूत्राणि मया न स्पृष्टानि. यदि भवन्तः सिद्धान्तकौमुदीम् उद्घाटयन्ति, अच्छन्धिप्रकरणे बहूनि सूत्राणि वर्तन्ते, सर्वाणि सूत्राणि मया अत्र न स्पृष्टानि. किन्तु प्रसिद्धानि सूत्राणि एव अत्र स्पृष्टानि. किन्तु कथम् अध्येतव्यम् इति तत्र मार्गः मया दर्शितः, सूत्राणाम् अर्थः कथं ज्ञातव्यः, अष्टाध्याय्यां सन्धिसूत्राणि कुत्र वर्तन्ते, कथं तेषाम् अर्थः ज्ञातव्यः इति मया दर्शितं. तदवलम्ब्य भवन्तः अन्यान्यपि सन्धिसूत्राणि अवगन्तुं शक्नुवन्ति. सिद्धान्तकौमुद्यां यानि सूत्राणि सन्ति तानि अपि सूत्राणि भवन्तः अवगन्तुं शक्नुवन्ति. तत्र सिद्धान्तकौमुद्यां वस्तुतः सिद्धान्तकौमुदी देर् आर् फैव् चाप्टर्स् आन् सन्धि, पञ्चसन्धिप्रकरणम् इति कथ्यते. अच्छन्धिप्रकरणं, पुनः हल्सन्धिप्रकरणं, प्रकृतिभावः इत्यस्ति, ततः विसर्गसन्धिः, स्वादिसन्धिः इति पञ्च प्रकरणानि सन्ति. अतः पञ्चसन्धिप्रकरणम् इति कथ्यते. तेषु प्रकरणेषु अच्छन्धेः विषये मया उक्तं, प्रकृतिभावस्य विषये मया उक्तम्. इतः परं हलसन्धिः, विसर्गसन्धिः, स्वादिसन्धिः, एतेषां विषये अस्माभिः ज्ञातव्यमस्ति. सर्वाणि सूत्राणि मया न स्पृष्टानि अच्छन्धिप्रकरणेऽपि, कानिचन प्रसिद्धानि सूत्राणि मया उक्तानि. अन्येषां सूत्राणाम् अर्थम् अनेन प्रकारेण भवन्तः ज्ञातुं शक्नुवन्ति. वै लु तत्र प्रश्नः अस्ति, वै लु रिप्लेसस् ऋकार, सोरि, वै ऋ दीर्घऋकार रिप्लेसस् लु. दीर्घलुकारः नास्ति संस्कृते, ह्रस्वः लुकारः वर्तते, पुरुतः लुकारः वर्तते, दीर्घलुकारः नास्ति. अतः दीर्घः आदेशः इति चेत् दीर्घः लुकारः नास्ति इति कारणात् अन्तरतमः सदृशतमः वर्णः अन्यः कः? ऋकारः एव. लुकारस्य लुकारः एव सदृशतमः, किन्तु दीर्घः लुकारः नास्ति. देर् इस् नो दीर्घलुकार. देर्फोर् दीर्घ ऋकार रिप्लेसस् लुकार. अतः अत्र लुकारस्य स्थाने दीर्घ ऋकारः एव भवति, दीर्घलुकारः नास्ति इत्यतः न भवति. अस्तु, And why is Pruta added before Pragrihya? So, Pruta Pragrihya is actually a Samasta Pada, and this is called Dvanda Samasa. And there are some rules regarding Dvanda Samasa, which word should be the first, which word we should be placed next. There are rules in Dvanda Samasa. Therefore, Pruta placed first and then Pragrihya is used. So that we will know later on. When we study Samasa, then we know why in which order the word should be placed. One more question is there. How to differentiate between Pura Rupa Sandhi and Yanta Desha Sandhi? For instance, Te Atra can also be Tayatra. See, again this Pura Rupa, if you see the rule, Pura Rupa Sandhi rule, Padante. Engaf Padantat Ati. That was just a minute. We'll display that rule. Engaha, see, engaha padanta dati. Padantat engaha. If eng is at the end of pada, padante, with the padante eng vartate, and if it is followed by short akara, ati pare, the hraswa akara pare asti, tada eva pururupasanti. So if eng, if the eng varanaha padante nasti, if eng is not at the end of pada, or if it is not followed by hraswa akara, if there is dirgha akara, then pururupa sandhi is not applicable. So where pururupa sandhi is applicable, there you can't apply yanta desha vanta desha sandhi. So pururupa sandhi is an exception, apavada. Pururupa sandhi apavada bhavati. Ataha yatra pururupa sandhi tatra yanta desha vanta desha sandhi na bhavati. Ataha prasamam pura rupa sandhe atra avakasha asti va iti drashtavyam. If pura rupa sandhi is applicable, then don't apply yanta desha vanta desha sandhi. Otherwise you can apply yanta desha vanta desha. In the example te atra, te is a pada and it ends with eng ekara and it's followed by hraswa akara. Therefore we have to apply pura rupa sandhi. So you can't apply yanta desha vanta desha in that example. Is it okay? So there is no confusion between Pura Rupa and Yanta Desha Vanta Desha. If yatra Pura Rupa Sandhi Avakasha, tatra Yanta Desha Vanta Desha Sandhi Avakasha nasti. Yeah, but the Lopa rule that you mentioned, yeah, the Lopa rule applicable only in Yanta Desha Vanta Desha. If there is Yanta Desha Vanta Desha, then only you can apply. Okay. Have I given this example? Te Atra for Yanta Desha Vanta Desha? Okay. No, yeah. See, if you apply Yanta Desha Vanta Desha, then only you can do Lopa. Yatra yanta desha vanta desha bhavati tatreva lopasya avakashah. If yanta desha vanta desha is not applied, tada lopasya avakashah api nasti. Yanta desha vanta desha kutra bhavati iti chet yatra pura rupan na bhavati tatreva yanta desha vanta desha sandhe pravarti. Yeah, pada ending with. Yeah, if I gave that example, then it is my mistake. You can give example of okara and aukara. There it is okay. But ekara, eng. A-O-N. No, so A-O. A-O anayoho na bhavati. I-O is possible. If I-O is padanta, aikara, naukara is followed by akara, then it is okay. If padante ekaraha athava haraye can be example of yantadesha. Hare, e, haraye, atra yantadesha bhavati. But if it is at the end of pada, if ing at the end of pada and if it's followed by harasvakara, tada pura rupameva bhavati. Yeah. So te atra iti udaharanam na bhavati. Iti maya dattam tatra doshena praya agatam. If I have given that example, then it came by mistake. So te atra can be example of pura rupa. Te atra, te atra. Yanta desha sanya udaharanam na bhavati. Astu, okay. Prashna asti va, Harmendra ji?
I have been having this issue for a while. Now, if in in the case of te atra, the purva is te is a, sorry, and the pare is a. So, how come we say both are replaced by one? Because the A remains, and the A also remains, isn't it?
Actually, no. How A remains?
Because we have that avagraha, isn't it? Avagraha?
Yeah, avagraha just to be right, but actually, there is no, even if you don't write avagraha. So Panini is not explaining how to write. So writing convention is different, means that we are using to, for our understanding. Avagraha is our own convention. Even without avagraha, that is okay.
So doesn't it mean then that the A is the lop?
No, see, I'm writing here. Actually, how it works, te atra. What happens is there is an ekara and akara. So the both a and a will be replaced with a. It means it becomes tu and a replaces c. Tu a tra. A replaces this ekara. And also it replaces this akara.
Okay.
So, tu etra, te etra. If you add up this, then it becomes te etra.
Mm-hmm.
This is how actually it works.
Mm-hmm.
Therefore, A replaces both. The previous ekara and akara, the later akara.
Thank you.
Astu. Astu, tarihi. Oh, samayaha jataha. Tatra. Vishwa Samskara Sammelana Vishaye Vadantu Iti Arambhe Uktam Kevalam Vakya Dvitri Vakyena Vadami. Maya Canada Desham Prati Katam Asit Vishwa Samskara Sammelane. Tra Sarvebhyaha Deshebhyaha Sutah Agacchanti Bahubhyaha Deshebhyaha Tra Agacchanti. Kintu Tena Karanena Tra Vaishvika Stare Samskrita sambandha kshetreshu kim chintanam prachalati iti jnatum shaknumaha. Pakshadvayam api jnatum shaknumaha. Purapakshaah api bhavanti. Bharatiya samskrite vishaye purapakshaah api jnatum shakyante. Punaha sampradayika drishtihi api. Drishtidvayam asti. Insider's view, outsider's view iti vadanti. Bharatiyanam drishtihi
अन्या भवति पाश्चात्यानां दृष्टिः तत्र अन्या भवति अतः द्वयमपि तत्र ज्ञातुं शक्नुमः भारतीयानां दृष्टिः का अस्ति पाश्चात्याः तत्र तस्मिन्नेव विषये किं वदन्ति इति सर्वेषु विषयेषु इट् केन् बि योगविषये स्यात् अथवा संस्कृतविषये स्यात् सर्वत्रापि भारतीयानां दृष्टिः अन्या भवति पाश्चात्यानां दृष्टिः अन्या भवति तत् इदं भेदं वयं ज्ञातुं शक्नुमः इति तदेव विशिष्टप्रयोजनं कथं तत्र तेन कारणेन अस्माभिः अपि तत्र कथं कार्यं करणीयम् इति ज्ञातुं शक्यते इत्येव सद्यः वक्तुमिच्छामि समयः अभवत् अस्तु तर्हि अत्र समापयामः अग्रिमपाठे अहं हल्सन्धिविषये पाठयिष्यामि अस्तु वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्।